नमस्कारः सर्वेषाम्. अस्माकं प्रगतन्यायवर्गः कृपया म्यूट् कुर्वन्तु यस्य कस्यापि गृहे ध्वनिः अस्ति. धन्यवादः. अस्तु, अस्माकं प्रगतन्यायवर्गे अद्य केवलं पुनरावर्तनम् अपि च पूर्वकृतपाठानां पुनरावलोकनमेव द्रोणमहोदयस्य अनुपस्थित्यां एवं कुर्मः इति. तर्हि पुस्तकस्य षष्ठपृष्ठात् आरभ्य पृष्ठसङ्ख्या 6 इति पश्यन्तु, ततः आरभ्य किञ्चित् पुनरावलोकनं कुर्मः. मम पार्श्वे काश्चन टिप्पणीः सन्ति, भवतां पार्श्वे अपि टिप्पण्यः स्युः. तर्हि सर्वं मिलित्वा यावत् स्मरामः तावत् चर्चयामः इति अद्यतन योजना. नमस्कारः भगिनि.
भगिनि, क्षम्यतां, मम समीपे पुस्तकं नास्ति. इतः पर्यन्तम् अहं archive.org गत्वा एव पश्यन्ती आसम्. अधुना अद्य तु तत् न प्राप्तमेव, अतः केवलम् अहं शृणोमि, पुस्तकं क्रेष्यामि.
अस्तु भगिनि, समीचीनमेव. अस्तु, तर्हि अपि च द्रष्टुं तु शक्नोति खलु तत्र?
न, द्रष्टुमपि न शक्नोमि. ऐटम् नाट् अवेलेबल् इति सन्देशम् आगच्छति.
एवं वा?
आमाम्.
अपरेषां पार्श्वे पुस्तकम् अस्ति किं? केषां केषां पार्श्वे नास्ति? archive.org इत्यस्य क्लेशः आसीत् अद्य, अहं जानामि स्म.
भगिनि, महोदय PDF प्रेषितवान्.
प्रेषितवान् भगिनि. तर्हि archive.org मध्ये अस्ति. अद्य किञ्चित् क्लेशः अस्ति आर्कैव् इत्यस्य, तदर्थं डौन्लोड् कृत्वा सङ्गणके स्थापयन्तु अग्रिमसप्ताहात् पूर्वम्. अस्तु, अस्तु भगिनि, प्रयत्नं कुर्वती भवतु, प्राप्नोति चेत्. अस्तु,
अस्तु भगिनि.
अस्तु, तर्हि अग्रे सरेम. पृष्ठसङ्ख्या 6 इति, तत्र पश्यन्तु, तत्र स्थूलाक्षरैः लिखितं द्रव्यगुणसामान्यविशेषसमवायाभावाः 7 पदार्थाः इति. तत्तु 7 पदार्थानां निर्देशवाक्यम् इति अस्ति. तस्मिन् सन्दर्भे किञ्चित् अस्माभिः उद्देश्यविधेयभावविषये चर्चितम्. सामान्यतया किं भवति इत्युक्ते, उद्देश्यविधेयभावस्थले प्रथमतया उद्देश्यः आगच्छति, तदनन्तरं विधेयः इत्युक्ते एषः मम मित्रम् इति चिन्तयतु. तत्र एषः इति उद्देशः, मित्रमिति विधेयः. एतम् उद्दिश्य तस्मिन् मित्रत्वं विधीयते इति. परन्तु अत्र तर्कसङ्ग्रहस्य निर्देशवाक्ये, पदार्थनिर्देशवाक्ये, द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः 7 पदार्थाः इति यत्र उक्तं, तत्र पदार्थाः इति उद्देश्यः, विधेयः अस्ति 7 इति. तत्र किञ्चित् महोदयेन उक्तमासीत् यद् 7 इति विधेयः प्रथमतया उक्त्वा तदनन्तरं पदार्थम् इति उद्देशः उक्तः. एषा शैली तु सामान्यतया अनुस्रियते अपरेषु स्थलेषु अपि, इत्युक्ते विधेयस्य उपन्यासः प्रथमं कृतः. तादृशीं शैलीं वयं अष्टाध्यायीग्रन्थे अपि द्रष्टुं शक्नुमः इति. इत्युक्ते वृद्धिरादैच् इति सूत्रं केचन जानीयुः अस्मासु, वृद्धिसंज्ञाविधायकसूत्रं. तत्र आद् ऐच् इति उद्देशः वस्तुतः, वृद्धित्वम् इति विधेयः, विधेयं प्रथमतया विधेयः उक्तः. यतोहि तत्र अत्रापि मङ्गलाचरणपूर्वकमेव भवतु ग्रन्थस्य आरम्भः इति कृत्वा, वृद्धिः इति मङ्गलं सूचयति इति कृत्वा तादृशक्रमपरिवर्तनं जातं. वृद्धिरादैच् इति प्रथमसूत्रमस्ति अष्टाध्यायां. तद्वदेव अन्नं भट्टैः अपि विपरीतक्रमेण पदानां प्रयोगः कृतः इति द्रोणमहोदयेन उक्तमासीत्. एतादृशी शैली बहुत्र दृश्यते इत्यस्य उदाहरणार्थं तथा महोदयेन दृष्टम्. अपि च तर्कसङ्ग्रहः इति बालानां सुखबोधाय इति कृतमस्ति खलु, तदर्थम् एषा शैली सुलभा भवेत् इति चिन्तनमासीत्. अस्तु इति किञ्चित् तत्र पदार्थनिर्देशवाक्यविषये. इतः अग्रे एवं कुर्मः, दीपिकाव्याख्यानं पठेम. अस्तु, तत्र खण्डशः पठित्वा पठित्वा अग्रे गच्छेम इति. तर्हि सप्तमे पृष्ठे दीपिकाव्याख्यानम् इति, सन्ध्या भगिनी तत्र आरब्धुम् इच्छति वा? प्रथमवाक्यं प्रायः
किं तत्र दीपिका पदार्थान् विभजते द्रव्येति इति तस्मात् किल?
हा, तस्मात् भगिनि.
पदार्थान् विभजते द्रव्येति, पदस्य अर्थः पदार्थः इति व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणम् इति लभ्यते. तर्हि तत्र द्रव्यगुणकर्म इति इत्यनेन वाक्येन तत्र सप्तपदार्थानां विभजनम् अस्ति. तत्र पदस्य अर्थः पदार्थः इति व्युत्पत्तिः अस्ति, पदार्थः इति पदस्य व्युत्पत्ति अभिधेयत्वं पदार्थसामान्यलक्षणम् इति लभ्यते. इत्युक्ते एतदेव तत्र पदार्थस्य सामान्यलक्षणम् इत्युक्ते पदस्य अर्थः इत्येव सामान्यलक्षणम्.
अन्यत् किमपि यत्किमपि स्मरति वदतु भगिनि. ममापि काश्चन टिप्पणीः सन्ति, किन्तु सर्वं मिलित्वा चर्चयामः इति.
आं, तत्र किमस्ति प्रतीकधारणम् इति किमपि अस्ति, बृहद्भागस्य लघु भागग्रहणं प्रतीकरूपेण इति. ओ, अत्र द्रव्येति इति यद् लिखितमस्ति केवलं तद् प्रतीकधारणम् इति चिन्तयामि. तत्र बृहद्भागः अस्ति तद् वाक्यं, तस्य वाक्यस्य अत्र प्रतीकत्वेन केवलं द्रव्येति इति लिखितमस्ति, तत् प्रतीकम् अस्ति इति. एतस्य वाक्यस्य विषये इतोपि किमपि नास्ति अत्र मम लिखितम्.
हा, सम्यक् भगिनि. अपि च किञ्चित् इतोपि वक्तव्यमस्ति अत्र यत् अस्तु, द्रव्येति इति यथा भगिनी उक्तं प्रतीकधारणम् इति, द्रव्येति इति एकलघुभागं सूचयति इति खलु भगिनि? हा, बृहद्भागस्य लघ्वीकरणम् इत्युक्ते द्रव्यगुणसामान्यविशेषाभाव इत्यादिकं तस्य लघ्वीकरणं कृत्वा लघूकरणं कृत्वा द्रव्येति इति उक्तम् इति एकः विषयः. अपि च अत्र एकः प्रश्नः आगतः आसीत् महोदयेन उपस्थापितं, सप्तपदार्थाः उक्ताः अस्तु, किन्तु अनन्तानि सन्ति द्रव्याणि, अनन्ताः गुणाः, अनन्तानि कर्माणि इति कृत्वा तत् वाक्यं किञ्चित् असङ्गतं स्यात् इति. इत्युक्ते सप्त एव पदार्थाः इति न सन्ति खलु, अनन्ताः स्युः. तर्हि तत्र किं वदन्ति नैयायिकाः इत्युक्ते अत्र भावप्रधाननिर्देशः इति वदन्ति. द्रव्यपदेन न सर्वाणि द्रव्याणि गृहीतानि, परन्तु द्रव्यत्वस्य निर्देशः. एवं गुणः इति वदनेन अनन्ताः गुणाः इति न, गुणत्वस्य निर्देशः. तर्हि अस्मिन् वाक्ये द्रव्यगुणकर्मसामान्यम् इत्यादिकं, तस्मिन् वाक्ये द्रव्यत्वस्य, गुणत्वस्य, कर्मत्वस्य, सामान्यत्वस्य, विशेषत्वस्य, समवायत्वस्य, अभावत्वस्य निर्देशः इति. तत्र महोदयेन उक्तं प्रकृतिजन्यबोधे प्रकारो भावः, तादृशनिर्देशः. अत्र प्रकृतिः इत्युक्ते मूलम् इति द्रव्यम् इति चिन्तयन्तु. अस्तु, तस्मात् त्वप्रत्ययः योजयित्वा भाववाचकशब्दः निष्पन्नः भवति, यथा सुन्दरः, सुन्दरत्वं. तर्हि द्रव्यम् इति कथनात् प्रकारीभूतमस्ति द्रव्यत्वम्, अथवा प्रकारः अस्ति द्रव्यत्वम् इति. तर्हि द्रव्यजन्यबोधे अथवा द्रव्यजन्य कथनेन प्रकारः द्रव्यत्वम् इति गृहीतं भवति, तादृश अर्थः अत्र विवक्षितः इति.
भगिनि, प्रकृतिजन्यबोधे किम् अग्रे तद्वाक्यं?
प्रकृतिजन्यबोधे प्रकारो भावः इति महोदयेन उक्तमासीत् इति मया लिखितं. पुनः कृपया ध्वनिं शृण्वन्तु. अस्तु,
धन्यवादः.
नाम अत्र आहत्य सारांशः अस्ति यत् द्रव्यमिति कथनेन द्रव्यत्वम् इति सूचितम् इति. नाम इत्युक्ते द्रव्ये द्रव्यत्वम् इति अस्ति इति यथार्थज्ञानविषये वयं जानीमः. रजते रजतत्वम् अपि च तयोः समवायसम्बन्धः एतत् सर्वं जानीमः खलु. तादृशज्ञान ज्ञापनार्थम् अत्र प्रकृतिजन्यभोधे प्रकारो भावः तादृशविवक्षा अस्ति, तादृशी विवक्षा अस्ति एतेषाम् इति भावप्रधानकथनम् इति.
भावप्रधाननिर्देशः इति तस्य भावस्त्वतलौ इति सूत्रेण तत्र निर्दिष्टं भवति इत्यपि उक्तं भवति.
किं महोदय इतोपि एकवारं कृपया.
तस्य भावस्त्वतलौ इति सूत्रं पाणिनीसूत्रं 5.1.119.
तस्य भावस्य तलौ इति वा?
तस्य भावस्त्वतलौ इति अनेन सूत्रेण एव तत्र भावप्रधाननिर्देशः कृतः इति.
5.1 किं?
5.1.119
इति पाणिनीयसूत्रम् अस्तु. हा किञ्चित् तत्र अस्ति तस्य भावस्त्वतलौ इत्युक्ते त्वप्रत्ययः अथवा तल् प्रत्ययः योज्यते खलु, युज्यते युज्येते
तदेव
भावसूचनार्थं यथा सुन्दरत्वम् अथवा सुन्दरता. सम्यक् महोदय, धन्यवादः. अस्तु, हा तादृशी विवक्षा एव अस्ति अस्मिन् वाक्ये. द्रव्यत्व गुणत्व कर्मत्व सामान्यत्व. सामान्यत्वम् इति वदनेन तत्र धर्मः इति मनसि भवेत्, न तु जातिः. समवायत्व विशेषत्व अभावत्व इति वक्तुम् इच्छति. अस्तु, इति प्रथमवाक्यमासीत्. अपि च इतोपि किञ्चित् वक्तव्यमस्ति अत्र. अत्र सामान्यमस्ति पदार्थः, विशिष्टम् अस्ति विभजनं. केन आगतं नूतनतया? सावित्री भगिनी खलु. अस्तु, सावित्री भगिनी नाम लिखितवती. अस्तु, अत्र सामान्यपूर्वकः अस्ति विशेषः इति नियमः. परन्तु अत्र सामान्यं पदार्थः अस्ति, अपि च विशेषम् अस्ति विभागः. द्रव्यगुणकर्म इति सप्तानां पदार्थानां निर्देशः यः जातः सः अस्ति विभागः. अस्तु, परन्तु अत्र वयं पश्यामः यत् सामान्यपूर्वको विशेषः इत्यस्य नियमस्य पालनं न जातं. प्रथमतया किमुक्तम् इति चेत् तत्र प्रथमतया विभागः अथवा विशिष्टः उक्तः. तदनन्तरं सामान्यं पदं यदस्ति पदार्थः इति तदुक्तं. किमर्थं तथा इति चेत् यथा सन्ध्या भगिनी उक्तवती, पदार्थः इति पदस्य अर्थः पदार्थः इति व्युत्पत्त्या एव ज्ञायते. विशेषतया किमपि न वक्तव्यं भवति तत्र इति कृत्वा सामान्यपूर्वको विशेषः इति नियमस्य उल्लङ्घनं यद्यपि जातं, तथापि तत्र कोऽपि क्लेशः नास्ति इति वदन्ति. अस्तु, एतावता. किमपि चिन्तनं, कोऽपि प्रश्नः?
अत्र अन्यदपि मया लिखितं, तत्र भावः इत्युक्ते किम् इत्यपि महोदयेन उक्तं, स्वार्थप्रकारीभूतज्ञानः भावः इति. स्वार्थप्रकारीभूतज्ञानः भावः इति.
स्वार्थप्रकारीभूतज्ञानम् इति वा?
स्वार्थप्रकारीभूतज्ञानः एव भावः इति.
अस्तु, तत्र पुल्लिङ्गं किमर्थं? ज्ञानं
प्रायः भावः इत्यस्य विशेषणम् इति कृत्वा तादृशं मया तत्र लिखितम्.
अस्तु, न मम चिन्तनमस्ति किमपि समस्तपदं किमपि अस्ति वा तत्र इति. यतोहि बहुव्रीहि समासः अस्ति चेत् लिङ्गभेदः भवति इति.
हा हा, न जाने, किन्तु एतादृशमेव उक्तम्.
ज्ञानं सर्वदा नपुंसकलिङ्गमेव
इति सत्यमेव, तदर्थं ममापि प्रश्नः आसीत्. अस्तु, स्वार्थ
ज्ञानम् इति स्वीकर्तुं शक्यते. स्वार्थप्रकारीभूतज्ञानम् एव भावः, तत्र प्रकारता
प्रकारता
इति तादृश प्रकारीभूतज्ञानः ज्ञानमेव भावः इति. स्वार्थप्रकारीभूतज्ञानं भावः.
भावः इत्युक्ते तत्र द्रव्यत्वम् इति प्रकारः खलु. द्रव्ये द्रव्यत्वम् अस्ति इति वदामश्चेत् द्रव्यत्वात् द्रव्यत्ववत् द्रव्यम् इति वदामश्चेत् तत्र द्रव्यत्ववत् इति यदा वदामः तत्र द्रव्यत्वम् इति प्रकारः भवति, अपि च सः भावः अपि इति कृत्वा हा स्वार्थप्रकारीभूतज्ञानम् अस्ति भावः. अस्तु अस्तु, समीचीनम् इति आगतं. हा, प्रथमवाक्यं सञ्जातम्. अधुना द्वितीयवाक्यं ननु अत्र इत्यस्मात् आरभ्य आण्ड्रे महोदय पठति वा?
पठामि भगिनि. अपि च तत्र भाव इति विषये मया किञ्चित् स्मृतं, परन्तु तत्र भावः वैयाकरणिकः वदन्ति भावः नाम प्रवृत्तिनिमित्तं भावपदार्थस्य प्रवृत्तिनिमित्तम् इति कश्चन परिभाषिकः शब्दः वर्तते व्याकरणमते. नाम यम् अर्थम् उद्दिश्यं कश्चन शब्दः किञ्चन पदं प्रवर्तते तम् अर्थं निमित्तीकृत्य सः अर्थः निमित्तं भवति. निमित्तं कस्य? शब्दपदप्रवर्तनस्य, शब्दवर्तनस्य, शब्दप्रवृत्तेः, शब्दप्रयोगस्य. अत एव प्रवृत्तिनिमित्तम् इति उच्यते. यथा द्रव्य इति पदस्य वस्तुतः द्रव्यत्वं यदुक्तं तत् तस्य शब्दस्य तस्य पदस्य प्रवृत्तिनिमित्तं भवति. अत एव भावः इति अनेन वैयाकरणः तु प्रवृत्तिनिमित्तम् इति.
प्रवृत्तिनिमित्तम् इत्युक्ते व्यवहारनिमित्तम् इति वा?
व्यवहारनिमित्तम् एवं यदा तत्र नायायिकैः तु तत्र सङ्केतः इति कश्चन अथवा शाक्तिः इति किञ्चित् स्वीक्रियते. नाम अर्थ पदार्थस्य संयोग सम्बन्धः यः शाक्तिः वा सङ्केतः. नाम तत्र वैयाकरणैः तत्र किञ्चित् अन्यत् चिन्त्यते इति मन्ये. तत्र प्रवृत्तिनिमित्तम् इति कश्चन.
समीचीनं, प्रवृत्तिनिमित्तम् इति भावः वा? अस्तु महोदय,
तर्हि ननु अत्र विभागतेव सप्तत्वे लब्धे सप्तग्रहणं किमर्थम् इति चेत् न अधिकसङ्ख्या व्यवच्छेदार्थत्वात्. ओके, तत्र चोदनः काचन कृता कोऽपि पूर्वपक्षि चोदयति भोः अत्र विभागत् एव यदुक्तं द्रव्यगुणकर्मसमवायसामान्यविशेषसमवाय अभावः येन विभागेन अनेन विभागेन एव सप्तत्वं यद्गुणः पदार्थे वर्तते सः गुणः विभागत् एव तत्र लभ्यते. किम् अर्थं तत्र शब्देन एव पदेन एव अयं गुणः अत्र निर्दिश्यते? ओके, अत्र निरार्थकः अयं सप्त इति शब्दः इति चोदनं कृतः. यत्र प्राक् किञ्चन तत्र कश्चन लाघु उपायः कृतः भोः न तत्र अर्थः अस्ति एव. तत्र यथा आदिकसङ्ख्यात्वं न भवति तथा एव मया सप्त इति स्पष्टीकरणार्थम् अत्र अथवा स्पष्टीदृढीकरणार्थम् अत्र शब्देन एव निर्दिष्टं. न्यूनसङ्ख्यात्वं केन न भवति? तत्र विभागत एव शब्दकरणेन एव पदेन एव पदैः एव अस्माभिः सप्तपदार्थाः तत्र सप्तपदार्थाः तत्र निर्दिष्ट न्यूनसङ्ख्याता न भवति. परन्तु अधिकसङ्ख्या शङ्का कदापि भवितुमर्हति. अतः एव सप्त एव उक्तं ग्रन्थकारैः.
हा अस्तु महोदय, समीचीनम्. अस्तु, इति द्वितीयवाक्यं स्पष्टता अस्ति वा सर्वेषां मनसि?
भगिनि, इत्युक्ते द्रव्यगुण इति सप्तानां नामानि लिखितानि, पुनः सप्त इति पदस्य कारणं किम् इत्युक्ते इत्यादि इति न स्वीकरणीयम् इति खलु?
हा सत्यं भगिनि, इत्येव महोदयेन उक्तम्, अधिकसङ्ख्या अवच्छेदार्थम्, अवच्छेदः इत्युक्ते निषेधः. तर्हि एतत् स्मरतु यत् ननु इति यत्र आरभ्यते, ननु अत्र ननु इत्यादिकं, ननु इति यत्र आरभ्यते तत्र पूर्वपक्षिणः आक्षेपः. पूर्वपक्षी पुनः आक्षेपं करोति यत् अस्तु, विभागः इति यदस्ति तत्र, इत्युक्ते द्रव्यगुणकर्म इत्यादयः विभागादेव सप्तत्वं प्राप्तं खलु, पुनः सप्त इति किमर्थं वदति इति पूर्वपक्षिणः आक्षेपः. तदर्थं न इत्यस्मात् आरभ्य सिद्धान्ति पुनः स्वस्य मतस्य किं रक्षणं कर्तुम् इच्छति. अधिकसङ्ख्या व्यवच्छेदार्थमेव सप्त इति उपस्थापितं तत्र इति.
तदेव अधिकसङ्ख्या व्यवच्छेद अधिकसङ्ख्या भवितुम् अर्हति इति किमर्थं चिन्तयति इत्युक्ते एतेषां नामानि उक्त्वा इत्यादि इति न स्वीकरणीयम् इति खलु?
एवं वा, अहं तु न
प्रश्नः.
हा सत्यम्, अधिक इत्यादि इति न स्थापनीयम् इत्युक्ते अधिकसङ्ख्या न भवेत् इति. अपि च न्यूनसङ्ख्यायाः अपि अवच्छेदनं जातं तत्र, यतोहि विभागात् द्रव्यगुणकर्मसामान्यविशेषः समवायः अभावः इत्यस्मात् भागात् सप्तपदार्थः प्राप्तः, तस्मात् न्यूनं किमपि न भवेत् इति, न्यूनसङ्ख्याकं न भवेत् इति पदार्थः.
भगिनि सन्देहः, एकः सन्देहः अस्ति, पृच्छामि वा?
हा वदतु भगिनि.
विभागात् एव सप्तत्वे, विभागात् एव सप्तत्वे, विभागात् एव कस्य विभागात् एव
भगिनि? यथा उक्तं द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावः इति सप्त
अभावः
इति सप्तानां कथनं कृतं खलु, तदेव विभागः इति उच्यते.
मम प्रश्नः विभागात् एव, विभागात् एव सप्तत्वे तत्र आगच्छति, विभागात् एव, विभागात् एव तत्र कश्चन पदार्थः सन्ति खलु, तत्र विभागात् एव पूर्वं किम् आसीत् तत् स्थाने, विभागः इति इत्युक्ते छेदनं खलु?
न न, एकरीत्या अवच्छेदनं, कस्य अवच्छेदनम् इत्युक्ते पदार्थानां, पदार्थेषु सप्त श्रेणयः स्थापिताः, ते श्रेणयः काः इति चेत् द्रव्यगुणकर्म इत्यादयः सप्त विभागाः स्थापिताः, तदर्थमेव सः भागः द्रव्य इत्यस्मात् आरभ्य अभावः इति यावत्पर्यन्तं सः भागः विभागः इति उच्यते. तर्हि तस्मात् भागात् एव अथवा विभागादेव सप्तसङ्ख्या लब्धा खलु, सप्तसङ्ख्या लब्धा इति कृत्वा न्यूनसङ्ख्यायाः अपि अवच्छेदनं प्राप्तम् अत्र, अन्यत् किमपि न वक्तव्यम् इति. हा समीचीनम् इति सिद्धान्ति अधुना वदति. अस्तु, पुनः अग्रिमवाक्ये पुनः एतत् समाधानं प्राप्यापि पूर्वपक्षी पुनः किञ्चित् आक्षिपति, किम् इति पश्येम. तत्र शुभवनमहोदय पठति वा?
आं पठामि भगिनि. ननु अतिरिक्तः पदार्थः प्रमितो न वा इति पुनः पूर्वपक्षी पृच्छति. अतिरिक्तः पदार्थः, तत्र पूर्वस्मिन् वाक्ये किमर्थं तत्र सप्त इति पदं लक्षणे तत्र वाक्ये उक्तम् इति पृष्टे सति अधिकसङ्ख्या व्यवच्छेदार्थत्वात् इति तस्य उत्तरं दत्तमस्ति. इदानीं पुनः पूर्वपक्षी पृच्छति अतिरिक्तः पदार्थः प्रमितः न वा इत्युक्ते तस्य इतोपि अधिकम् अधिकः पदार्थः अस्ति इति ज्ञानमस्ति वा न वा इति पूर्वपक्षी पृच्छति. न आद्यः इदानीमपि
एकवारम् एकवारं वदतु, प्रमितः इत्युक्ते किम्, अप्रमितः, प्रमितः इत्युक्ते किम् इति वदतु प्रथमम्.
अत्र ज्ञानमेव किल?
हा प्रमितम् इत्युक्ते
पदार्थस्य ज्ञानं.
आम्
वदतु
इत्युक्ते यथार्थज्ञानं यत्र जायते, यत्र भ्रमात्मकज्ञानं न जायते, सः प्रमितः पदार्थः. यथार्थज्ञानात् यः पदार्थः सिद्ध्यति सः प्रमितः. प्रमितिः इत्युक्ते यथार्थज्ञानं प्रमितेः विषयत्वेन अथवा प्रमा विषयीभूतः यः तादृशपदार्थः प्रमितः. अस्तु. हा पुनः ननु इति एव आरब्धं खलु, ननु अतिरिक्तः इति, ननु अतिरिक्तः. तत्र तर्हि पूर्वपक्षी पुनः आक्षिपति, व्यवच्छेदः इति उक्तम् अथवा निषेधः इति उक्तं, कस्य निषेधं, निषेधार्थं संख्या स्थापिता, प्रमितस्य वा अथवा अप्रमितस्य वा निषेधः कस्य इति. अस्तु महोदय, एतावता स्पष्टं वा सर्वेषां मनसि?
भगिनि क्षम्यतां, प्रमिता तत्र भवता उक्तं यथार्थज्ञानं, तत्र उदाहरणार्थं रज्जु सर्पः इति भवान् उक्तवान्.
भगिनी, प्रमितः इत्युक्ते भ्रमज्ञानं नास्ति, तावदेव. अस्तु
अस्तु भगिनि.
हा अस्तु, शुकवान महोदय, अग्रे कृपया.
हा इदानीं तत्र अतिरिक्तः पदार्थः प्रमात्मक प्रमात्मकपदार्थः अस्ति वा न वा, यत् निषिद्धम् अधिकसङ्ख्या विवच्छेदार्थत्वात् तत् तादृशपदार्थः प्रमात्मकः वा न वा इति पूर्वपक्षी पृच्छति. सः एव इतोपि वदति, न अद्यः प्रमितस्य निषेध अयोगात् इति. यदि कोऽपि वदति अस्य प्रश्नस्य उत्तरम् आम् अतिरिक्तपदार्थः प्रमितः एव प्रमात्मकम् एव इति वदति चेत्, यत् प्रमात्मकम् अस्ति, प्रमात्मकं वस्तु अस्ति, तस्य निषेधः न कर्तुं शक्यते, निषेध अयोगः भवति तत् इति कृत्वा आद्यः न भवति, अतिरिक्तपदार्थः प्रमितः इति न वक्तुं शक्यते इति अस्ति. पुनः न
एकनिमिषम्, एतावता सर्वेषां मनसि स्पष्टता भवेत्. प्रश्नः आसीत् कस्य निषेधं करोति, न आद्यः, आद्यः अत्र प्रमितः. प्रमितस्य यत् यद् वस्तु अस्ति तस्य निषेधः इत्युक्ते प्रमा विषयः अस्ति चेत् तत्तु सत्यमेव अस्ति इति, तस्य निषेधः कथं क्रियते, निषेधः निषेधस्य अयोगात् तस्य निषेधः न क्रियते इति. अस्तु अग्रे महोदय.
न अन्त्यः प्रतियोगी प्रमितिं विना निषेध अनुपपत्तिरिति चेत् इति पुनः अत्रापि पूर्वपक्षी एव वदति, न अन्त्यः इत्युक्ते न प्रमितम् अप्रमितपदार्थः इति स्वीकुर्मश्चेत् तत्र प्रतियोगी प्रमितं प्रमितिं विना निषेध अनुपपत्तिः इति. इत्युक्ते तत्र इदानीं तत्र अतिरिक्तपदार्थः अप्रमितः अप्रमात्मकः इति स्वीकुर्मश्चेत् तत्र इत्युक्ते तत्र वयं किं कुर्मः, अप्रमात्मकः इत्युक्ते निषेधमेव कुर्मः तत्र. किन्तु यस्य निषेधं कर्तुं शक्यते, यद् वस्तुः अस्ति इति वयं जानीमः, तादृशपदार्थस्य एव निषेधं कर्तुं शक्यते. यस्य प्रतियोगी अस्ति तस्य एव अभावः भवितुम् अर्हति. किन्तु इदानीं तत्र अतिरिक्तपदार्थः अप्रमितः इत्युक्ते तत्र तादृशपदार्थः एव नास्ति इति स्वीकुर्मश्चेत् तस्य निषेधं किमर्थं कर्तव्यं, तत्र सप्त इति पदेन तादृश यत् पदार्थः नास्ति तादृशपदार्थस्य किमर्थं निषेधनं करणीयम् इति तत्र पक्षद्वयमपि न वक्तुं शक्यते. अतः शङ्का एतावत्पर्यन्तमपि तिष्ठति इति पूर्वपक्षी आक्षिपति.
हा समीचीनं महोदय. अस्तु, इति अप्रमितः इत्युक्ते यस्य प्रमा न जाता इत्युक्ते यद् यद् वस्तु नास्ति, यः पदार्थः नास्ति इत्युक्ते अभावः, तस्य निषेधः क्रियते वा इति पुनः पूर्वपक्षी पृच्छति. अपि च तादृशवस्तुनः निषेधं कर्तुमपि न शक्नुमः, यतोहि यद् न जायते तस्य अभावं कल्पयित्वा तस्य निषेधं कथं वा कर्तुं शक्यते इति. अभावज्ञानात् पूर्वं प्रतियोगिज्ञानं भवेत्. अप्रमितः इत्युक्ते प्रतियोगी एव नास्ति, अभावः तु प्रतियोगिज्ञानाधीनः खलु, प्रतियोगिज्ञानानन्तरमेव अभावज्ञानं. तर्हि यद् अप्रमितं तस्य अभावस्य निषेधः कर्तुमेव न शक्यते. कोऽपि प्रश्नः वा अत्र
भगिनि? अत्र आद्यः अन्त्यः इत्युक्ते कस्य विषये आद्यः अन्त्यः इति उक्तम् अत्र?
पूर्वं पूर्वस्मिन् पुटे पश्यतु भगिनि, तत्र ननु अतिरिक्तः इत्यस्मात् आरभ्य पूर्वपक्षिणः पुनः आक्षेपः सञ्जातः. तत्र ननु अतिरिक्तपदार्थः प्रमितो वा प्रमितो न वा.
ओ अस्तु, प्रमितः आद्यः अप्रमितः अन्त्यः इति वा?
हाम् आम् इति एव. अस्तु, तत्र किम् उक्तं? हा, द्रोणमहोदयेन यदुक्तम् आसीत् तत्र प्रमित न वा इति वदामश्चेत्, तत्र नित्यम् इति वदामश्चेत् अनित्यम् इति अपगच्छति खलु. यत्र नित्यत्वमस्ति तत्र अनित्यत्वं नास्ति, अनित्यत्वमस्ति चेत् नित्यत्वं नास्ति, तादृशः. प्रमितो न वा इति चेत् प्रमितत्वम् अस्ति अथवा अप्रमितत्वम् अस्ति इति स्वीकार्यं भवति इति उक्तम् इति पदार्थद्वयं कस्य निषेधं करोति इति, कस्य करोति इति पृच्छति. प्रमितस्य निषेध अयोगात् तस्य निषेधः न, अप्रमितस्य प्रतियोगिं विना अभावनिषेधं कर्तुं कथं कर्तुं शक्यते इति कृत्वा तत्रापि निषेधः एव, क्षम्यतां, तत्रापि निषेधं न कर्तुं शक्यते. तर्हि को वा किं वा प्रयोजनं सङ्ख्यायाः स्थापने इति वस्तुतः प्रश्नः. अधिकसङ्ख्याव्यवच्छेदार्थम् इति उक्तं, कस्य व्यवच्छेदः अथवा कस्य निषेधः इति
प्रश्नः. तत्र ननु इति आरभ्य पूर्वपक्षिणः वाक्यम् अस्ति, किन्तु न अद्य, तत् सिद्धान्ति वदति अथवा पूर्वपक्षी वदति? तत्
पूर्वपक्षी एव.
अस्तु,
पूर्वपक्षी एव पुनः पृच्छति कस्य इत्युक्ते किञ्चित् व्यङ्ग्यात्मकरीत्या. अस्तु, अधिकसङ्ख्या व्यवच्छेदः इति उक्तः भवता, कस्य व्यवच्छेदं करोति, प्रमितस्य वा अप्रमितस्य वा किं करोति इति पृच्छति.
भगिनि, अपि च मम स्मरणमस्ति ननु इति आरभ्य चेत् पर्यन्तं पूर्वपक्षिणः वाक्यम् इति
खलु? सत्यमेव भगिनि, बहुत्र तथा अस्ति खलु, ननु इत्यस्मात् आरभ्य. हा सत्यमेव, पूर्वस्मिन् अपि ननु अत्र विभागादेव, तत्रापि चेत् पर्यन्तं पूर्वपक्षि तदनन्तरं सिद्धान्ति इति. सत्यम्, अस्तु इति आक्षेपः. तत्र महोदयेन उक्तं तद् किं शशशृङ्गधनुर्धरः इत्यादिकम् उदाहरणं दत्तमासीत्. शशशृङ्गः इत्युक्ते शशः इति जानीमः, राबिट् इति, तस्य शृङ्गमपि न वर्तते. तर्हि यद् न वर्तते एव, असत्त्वं यस्य अस्ति तादृश असत्त्वभूतस्य निषेधः न शक्यम् इति. अस्तु, एतावता पूर्वपक्षी पुनः आक्षिपति. ततः अग्रे पश्येम, शुकवनं महोदय, रत्ना भगिनी, भवत्याः क्रमः, सिद्धान्ती किं वदति इति.
अस्तु, न पदार्थत्वं द्रव्यादि सप्तान्यतमत्वव्याप्यमि व्याप्यमिति क्षम्यतां व्याप्यमिति व्यवच्छेदार्थत्वात् पदार्थत्वं द्रव्यादि अन्यत्वम्. अस्तु, अत्र पदार्थत्वं द्रव्यादि इत्युक्ते द्रव्यं गुणः कर्म इत्यादि सप्त अन्यत्वं पदार्थत्वे सप्त अन्यत्वं नास्ति इति व्यवच्छेदार्थम्.
हा अत्र अस्तु, किं पूर्वपक्षी पृच्छति कस्य पदार्थस्य व्यवच्छेदं करोति इति खलु तथा यदा पृच्छति तत्र सः किं ज्ञातुमिच्छति पूर्वपक्षी इत्युक्ते कीदृशपदार्थत्वं विवक्षितं भवता इति कीदृशपदार्थ अप्रमित अस्तु कोऽपि ध्वनिः अस्ति निषेधार्थं कीदृशपदार्थत्वम् अप्रमितपदार्थत्वम् अथवा प्रमितपदार्थत्वं का विवक्षा इति पूर्वपक्षी पृच्छति तदर्थं सिद्धान्ती वदति भोः तथा नास्ति अस्तु अप्रमितपदार्थः अथवा प्रमितपदार्थः इति न विवक्षा मम विवक्षायां तु पदार्थत्वम् इत्युक्ते द्रव्यादि सप्तान्यतमत्वव्याप्यम् इति तत्र सिद्धान्ति द्रव्यादि सप्ततमत्वव्याप्यम् इत्युक्ते तत्र पदार्थ
तत्र सप्त अन्यतमत्वव्याप्यमी
व्याप्यमिति इत्युक्ते पदार्थत्वम् इति व्यापकम् अस्तु पदार्थत्वम् इति व्यापकं तत्र द्रव्यगुणकर्म इत्यादि सप्त अन्यतमत्वं व्याप्य क्षम्यतां सत्यं पदार्थत्वं व्याप्यम् अपि च एतद् अन्यतमत्वम् इति यदुक्तं तद् व्यापकं तादृशविवक्षा अस्ति मम इति सः वदति रत्ना भगिनी कोऽपि ध्वनिः अस्ति
मम वा अस्तु भगिनि
अस्तु इदानीं सप्त द्रव्यादि सप्तान्यतमत्वव्याप्यम् इति उक्तं खलु इत्युक्ते पदार्थत्वं व्याप्यमस्ति द्रव्यादि सप्त अन्यतमत्वं व्यापकम् इति अत्र समव्याप्तिः अस्ति तस्य अर्थः कः इति पुनः पूर्वपक्षी आक्षेपेण पृच्छति इति अग्रे पश्येम लक्ष्मी भगिनी
अस्तु भगिनि ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वम् इति वक्तव्यं सप्तानि अन्यतमत्वं सप्तभिन्नभिन्नत्वम् इति सप् भवती एव वदतु भगिनि अहं सम्यक् न वक्तुं शक्नोमि सप्तानि अन्यतमत्वम् इति अधुना एव उक्तं खलु स सप्तानि अन्यतमत्वम् इत्युक्ते द्रव्यः सप्तपदार्थेषु द्रव्यः अपि एकम् अस्ति तत् तेषु सप्तभिन्नभिन्नत्वम् इति वक्तव्यं सप्तभिन्नभिन्नत्वम् अत्र अत्र किं विवक्षा अस्ति सप्तभिन्नभिन्नत्वम् इत्युक्ते सप्तपदार्थेषु
सप्तभिन्नभिन्नत्वं सप्तभिन्नः इति तु जानाति द्रव्यगुणकर्म भिन्नः इति सप्तभिन्नः पुनः द्वितीयवारं भिन्नत्वम् इति यदागच्छति तस्य अर्थः भेदः इति
ओ अस्तु
भेदः तु जानीमः खलु अन्योन्याभावः तर्हि अत्र पूर्वपक्षी पृच्छति सप्तान्यतमत्वम् इति व्यापकम् इति भवान् वदति चेत् तत्र तस्य अर्थः कः मम मनसि एवमस्ति यत् सप्तभिन्नभिन्नत्वम् इत्युक्ते सप्तभिन्न सप्तपदार्थान् विहाय यत्किमपि अस्ति सप्तभिन्नः तस्य भेदः अथवा अन्योन्याभावः इति मम मनसि अस्ति परन्तु भवान् वदति यत् सप्तभिन्नपदार्थाः अप्रसिद्धः इति अग्रिमवाक्यमस्ति एवं च सप्तभिन्न वदतु भगिनि पठतु
एवं च सप्तभिन्नस्य प्रसिद्धया कथं सप्तान्य अन्यतमत्व अन्यतमत्व व्याप्तिनिश्चय इति चेन् यदि
किं पठति भवती दीपिका
अस्तु
एव पठति खलु
पूर्वमेव अद्य आर्केव् डाट् मध्ये नास्ति, केवलं राष्ट्रियसंस्कृतसंस्थाने तर्कसङ्ग्रह दीपिका एव अस्ति, तदेव तदेव अहम् इदानीं पठन्ती आसम्। मम समीपे तत् अस्माकं पुस्तकं नास्ति।
अस्तु, हा हा हा, तदर्थमेव किञ्चित् भिन्नम् अस्ति भगिनि तत्र।
ओ अस्तु अस्तु
अस्तु, हा भवतु भवतु, नाम यत्किमपि भवतु, तत्र प्रथमतया पूर्वपक्षी पृच्छति सप्तान्यतमत्वम् इत्युक्ते किं, सप्तभिन्नभिन्नत्वं वा इत्युक्ते सप्त पदार्थान् विहाय ये केऽपि पदार्थाः सन्ति तस्य भेदः इति वा इति। तथा चेत् भवानेव उक्तवान् सप्तभिन्नस्य अप्रसिद्धत्वम् अस्ति इति, इति एव सिद्धान्ती उक्तवान् खलु, सप्तभिन्नपदार्थः अप्रसिद्धः इति, प्रमितस्य वा अप्रमितस्य निषेधः न कर्तुं शक्यते। तर्हि सप्तभिन्नः अप्रसिद्धः अथवा असत्त्वः इति चेत् तस्य भेदः, तस्य अन्योन्यभावः पुनः कथम् इति पूर्वपक्षी पृच्छति। प्रश्नः किञ्चित् स्वस्य वाक्यैः वक्तुं शक्यते?
पुनः ननु सप्तम्य अन्यतमत्वं सप्तभिन्नभिन्नत्वम् इति वक्तव्यं, तत् वाक्यं भगिनि। आम्, यदि सप्तभिन्नभिन्नत्वम् इत्युक्ते सप्तपदार्थेषु सप्तपदार्थाः तेषां विहाय अन्यपदार्थः अस्ति चेत् अन्योन्यभावः सप्तपदार्थाः अपि च अन्य यदि अन्यपदार्थः अस्ति चेत् तयोः मध्ये अन्योन्य अभावः भवेत् इति वक्तव्यम् इति पूर्वपक्षी वदति।
सप्तभिन्नभिन्नत्वम् इत्युक्ते कः अर्थः? सप्तपदार्थान् विहाय ये केऽपि पदार्थाः तेषां भेदः अथवा अन्योन्यभावः इति वा? परन्तु वयं जानीमः सप्तभिन्नपदार्थाः अप्रसिद्धाः, यतोहि सः एव पूर्वपक्षी एव पुनः उक्तवान् अस्तु अप्रमितस्य प्रमितस्य उभयोः निषेधः न शक्यः इति कृत्वा। अप्रमितः चेत् स्वीकर्तुं शक्यते, किन्तु यः अप्रसिद्धः, सप्तभिन्नः अप्रसिद्धः, सप्तभिन्नपदार्थाः एव न सन्ति इति वदामश्चेत् तस्य भेदः, अप्रसिद्धस्य भेदः कथं क्रियते? तर्हि भवतः मनसि सप्तान्यतमत्वम् इत्युक्ते सप्तभिन्नभिन्नत्वम् इति विवक्षा अस्ति न वा इति पुनः पूर्वपक्षी पृच्छति। पूर्वपक्षिणः मनसि तु सप्तभिन्नभिन्नत्वम् इति अर्थः अस्ति सप्तान्यतमत्वम् इत्यस्य। तर्हि भवान् यदि वदति पदार्थत्वं द्रव्यादि सप्तान्यतमत्वव्याप्यम् इति यदा वदति तर्हि सप्तान्यतमत्वम् इत्यस्य अर्थः कः? इतोपि स्पष्टीकरणम् इष्यते पूर्वपक्षिणा। अवगच्छति? अस्तु, इतः अग्रे पश्येम सिद्धान्ती किं वदति इति। निरञ्जनमहोदय
न द्रव्यादिसप्तान्यतमत्वं द्रव्यादिभेदसप्तकाभाववत्त्वम् इति तदर्थत्वात्। हा, तत्र किञ्चित् स्मरामि भगिनि, पूर्णतया न, किन्तु अत्र सप्तपदार्थः स्वीकृतः द्रव्य गुणकर्म इति, प्रत्येक पदार्थस्य भेदः अस्ति, अन्योन्याभावः अस्ति, तत्र द्रव्यादिभेदसप्तक प्रत्येकस्य पदार्थस्य भेदः अस्ति, सप्तपदार्थाः सन्ति, अतः भेदस्य सप्तकः भवति द्रव्यादिभेदसप्तकः। तत् कुत्र अस्ति इत्युक्ते द्रव्यविहाय अन्येषु पदार्थेषु द्रव्यस्य भेदः भवति किन्तु द्रव्ये न भवति. गुणविहाय अन्येषु द्रव्येषु क्षम्यताम् अन्येषु पदार्थेषु गुणभेदः भवति किन्तु कुत्रापि सप्तभेदः न भवन्ति इति कृत्वा द्रव्यादिभेदसप्तकस्य अभाव अस्ति. तदेव अहम् अत्र द्रव्यादिसप्तान्यतमत्वम् इति वदामि इति एतत् स्मरणमस्ति वा भगिनी तत्र?
समीचीनया एव उक्तं महोदय, सम्यक्.
तावदेव.
तर्हि सप्तान्यतमत्वम् इति किम् इति पुनः सिद्धान्ते स्पष्टीकरोति. यथा महोदयेन उक्तं सप्तक द्रव्यादिभेदसप्तक इत्युक्ते किम् इति प्रथमतया चिन्तनीयं. द्रव्यभेदः, गुणभेदः, कर्मभेदः, तदनन्तरं सामान्यभेदः, विशेषभेदः, समवायभेदः, अभावभेदः इति सर्वं मिलित्वा द्रव्यादिभेदसप्तक इति आगच्छति. इत्युक्ते भेदस्य समूहः, एकः समूहः अस्ति. सप्तानामपि भेदसमूहः अस्ति द्रव्यादिभेदसप्तक इति. तादृशद्रव्यादिभेदसप्तक अभावः कुत्र वर्तते इत्युक्ते द्रव्ये वर्तते, गुणे वर्तते, अपि च कर्मणि वर्तते, सप्तसु पदार्थेषु वर्तते. यतोहि यद् यं कमपि पदार्थं स्वीकुर्मः, अस्तु द्रव्यमिति स्वीकुर्मः, तत्र केवलं षड् भेदाः वर्तन्ते खलु. यथा महोदयेन उक्तं द्रव्ये गुणभेदः, कर्मभेदः, सामान्यभेदः, समवायभेदः, विशेषभेदः, अभावभेदः इति वर्तते. किन्तु द्रव्ये द्रव्यभेदः न वर्तते. तर्हि किम् आगतं तेन? षड् भेदाः एव वर्तन्ते, न तु द्रव्यादिभेदसप्तकम्. अतः द्रव्ये भेदसप्तकाभावः इति वदति. तद्वदेव गुणे अपि भेदसप्तकाभावः वर्तते, कर्मणि अपि भेदसप्तकाभावः वर्तते. तादृशविवक्षा अस्ति सिद्धान्तिनः. द्रव्यादिसप्तान्यतमत्वम् इत्युक्ते द्रव्यादिसप्तकाभावः इति विवक्षा अस्ति. बुद्धं वा सर्वैः?
अत्र किञ्चित् क्लेशः अस्ति मम भगिनी.
द्रोणमहोदयेन अन्य अंशः अपि उक्तमस्ति. तत्र प्रश्नः यदि रामलक्ष्मणः तत्र न्याय किमपि उदाहरणं दत्तमासीत्, रामः अस्ति किन्तु लक्ष्मणः नास्ति चेत् प्रश्नः रामलक्ष्मणौ स्तः वा इति प्रश्ने सति न इति उत्तरं भवति. रामः तु अस्ति किन्तु लक्ष्मणः नास्ति चेत् रामलक्ष्मणौ स्तः इति प्रश्नस्य उत्तरं न इति एव भवति. अतः अत्र द्रव्यसप्तके एकमपि नास्ति चेत् उत्तरं न इति एव भवति इति.
हा हा हा, समीचीनं महोदय, इति सम्यक् उदाहरणमस्ति. शुकवन महोदय, इति किञ्चित् स्पष्टं जातं वा अथवा कः प्रश्नः?
न, अत्र द्रव्यादिभेदसप्तकम् इति पदार्थमेव नास्ति, सशृङ्गवत् इति अङ्गीकरोति वा?
द्रव्यादि अवश्यं महोदय, अहं तु नैयायिकानां विषये न जानामि, अहं तु
न न भवतु. द्रव्यादिभेदसप्तकम् इति पदार्थमेव नास्ति इति चेत् तस्य अभावः यथा सशृङ्गवत् सशृङ्गस्य अभावः ते न अङ्गीकुर्वन्ति, तत्र निषेधमेव अनुपपत्तिः भवति इति अत्र सिद्धान्तः मम अवगतः. किन्तु अत्र अस्मिन् समासे मम अर्थमेव न सङ्गच्छते. द्रव्यादिभेदसप्तकम् इति पदार्थमेव नास्ति, तस्य अभावत्वम् इत्येव द्रव्यादिसप्त अन्यतमत्वस्य अर्थम् इति सिद्धान्ती वदति.
महोदय, परन्तु चिन्तयतु, द्रव्यादिसप्तकभेदः इत्युक्ते किं? सप्तभेदानां समूहः. सप्तभेदानां समूहः अस्ति खलु महोदय, तत्र सप्तभेदानां समूहे के भेदाः सन्ति इत्युक्ते द्रव्यभेदः गुणभेदः तादृशसमूहः
सत्यं
हा, तर्हि किमर्थं भवान् वदति तादृशसमूहः एव नास्ति इति?
ओ मया उक्तं तादृशपदार्थः नास्ति इति, किन्तु समूहः अस्ति एव इति अङ्गीकर्तव्यं सत्यं
अङ्गीकर्तव्यं खलु, यतोहि द्रव्यभेदः तु अस्ति इति जानीमः, गुणभेदः जानीमः अस्ति, अस्तु गुणे न स्यात् किन्तु अपरत्र स्यात् खलु गुणभेदः, द्रव्यभेदः अपि तथा, तर्हि ये केऽपि भेदाः पृथक् पृथक्तया स्वीकृत्य अस्मिन् समूहे स्थापिताः ते सर्वे तु सन्ति, तर्हि तादृशसमूहः तु वर्तेत खलु, तस्य अभावः, अभावस्य अभावः
तत्रैव मम द्वितीयक्लेशः अपि अस्ति. अभावस्य अभावः नैयायिकानां मतानुसारं यदा कदापि न वदामः किल, अभावस्य प्रतियोगी एव वदामः, तत्र द्रव्यादिभेदसप्तकप्रतियोगित्वम्
अभावस्य अभावं वयं बहुवारं दृष्टवन्तः अनुमानप्रमाणविषये तु, घटत्वाभावाभावः इत्यादिकं वयं दृष्टवन्तः एव, अभावे अपि अभावः भवितुमर्हति, घटत्वाभावाभावस्य प्रतियोगी घटत्वाभावः इत्यादिकं खलु इति दृष्टमासीत्, तर्हि अभावस्य अभावः अपि भवितुमर्हति. हा परन्तु अत्र विवक्षा इत्युक्ते अभावसमूहः सप्तान्योन अन्योन्याभावसमूहः इति भेदसप्तकः, तस्य अभावः प्रत्येकस्मिन् पदार्थे अवश्यं वर्तते द्रव्ये गुणे कर्मणि इत्यादिषु. अस्तु
समूहस्य अभावः,
समूहस्य अभावः सप्तकभेदाभावः तु अवश्यम् अस्ति प्रत्येकस्मिन् पदार्थे, तादृशविवक्षा एव मम अस्ति इति सिद्धान्ती वदति.
अस्तु भगिनि,
अस्तु सप्तान्यतमत्वम् इत्यनेन सा एव विवक्षा मम इति वदति. अस्तु अन्ततो गत्वा प्रश्नः कुतः आरब्धः इत्युक्ते कस्य अवच्छेदं कस्य अवच्छेदार्थं सङ्ख्यां स्थापितवान् इति. प्रमितस्यापि अवच्छेदः अथवा निषेधः न कर्तुं शक्यते, अप्रमितस्यापि न कर्तुं शक्यते इति मूलप्रश्नः आसीत्. तस्य प्रश्नस्य उत्तरार्थं सिद्धान्ती उक्तवान् पदार्थत्वं, मम विवक्षायां पदार्थत्वम् इत्युक्ते प्रमितः अप्रमितः इति किमपि नास्ति, पदार्थत्वम् इत्युक्ते द्रव्यादिसप्तान्यतमत्वं तमत्वव्याप्तिः व्याप्यम् इति एव मम मनसि आसीत्. पुनः द्रव्यादिसप्तान्यतमत्वम् इत्युक्ते किम् इति चेत् एवमेव द्रव्यादिभेदसप्तकाभावः भावत्वम् इति सिद्धान्तिनः मनसि विवक्ष. अनेन पूर्वपक्षिणः प्रश्नस्य उत्तरं प्राप्तम् इति मन्ये. अन्यः कोऽपि विषयः अस्ति वा वक्तुम् अत्र, अथवा किमपि चिन्तनम्? अस्तु अग्रे सरेम, इतः अग्रे तस्मिन्नेव पुटे अष्टमे पुटे एव स्थूलाक्षरे यद् लिखितं तत्र द्रव्याणि पृथिवी यप् तेजो वायुवाकाश कालदिगात्मा मनांसि नवैव इति उक्तं. तत्र अस्तु तत्र इत्युक्ते सप्तपदार्थेषु इति अर्थः. सप्तपदार्थेषु पुनः विभजनं द्रव्याणि इति, द्रव्याणि इति उद्देश्यः, अपि च यथा सामान्यं पृथिवी अप् तेजो वायुवाकाश कालदिगात्ममनांसि इति उक्त्वा नव एव इति विधेयः दत्तः तत्र, द्रव्याणि इति उद्देशः नवत्वम् इति विधेयम्. अत्र तु क्रमः समीचीनः अस्ति, उद्देश्यविधेयभावस्थले यथा भवति उद्देश्यः प्रथमम् अनन्तरं विधेयः, अत्र क्रमः समीचीनः एव अस्ति. अस्तु द्रव्याणां निरूपणप्रसङ्गे वाक्ये द्रव्याणि इति उद्देश्यः नवैव इति विधेयः, मध्ये यत्किमपि अस्ति तद्विभागः यथा वयं जानीमः, द्रव्येषु अपि विभागः क्रियते नवद्रव्याणि इति, पृथ्वी अप्तेजो वायुवाकाश कालदिगात्मा मनाजि इति। अस्मिन् सन्दर्भे एकः नूतनशब्दः अस्ति एव इति। एव इत्यस्य विषये महोदयेन उक्तमासीत् एव इति शब्दः त्रिषु अर्थेषु युज्यते इति। तस्य विषये कोऽपि वक्तुम् इच्छति वा? सावित्री भगिनी वक्तुं शक्नोति वा?
आं भगिनी, किञ्चित् प्रयत्नं करोमि। प्रथमः विशेष्यविशेषणभावार्थे यथा पार्थः एव धनुर्धरः इति, तत्र एव इत्यस्य अन्ययोगव्यवच्छेदार्थं पार्थभिन्नस्य व्यवच्छेदार्थम् एव इति पदस्य प्रयोगः भवति। तत् प्रथम त्रिप्रकारकः इति महोदयेन उक्तं, तत् प्रथमं। द्वितीयम् आसीत् अयोगव्यवच्छेदः इति। तत्र शङ्करशार्दूर इति लिखितं मया, शार्दूर एव इति लिखितं मया,
पाण्डूरः एव,
शाण्डूरः,
पाण्डूरः, पाण्डूरः इत्युक्ते शुक्लः इति चिन्तयामि खलु?
न जानामि भगिनि,
कोऽपि जानाति वा? पाण्डूरः इति शुक्लः खलु? अस्तु, धन्यवादः।
तत्र शङ्खः शाण्डूरः एव इत्युक्ते
पाण्डूरः, पापा भगिनि,
पाण्डूरः,
पाण्डूरः वा? अस्तु अस्तु, धन्यवादः। तत्र अयोगव्यवच्छेदार्थम् इत्युक्ते अन्ये अपि पाण्डूरः भवेयुः, परन्तु अत्र शङ्खस्य एव विवक्षा। तृतीयस्थानम् आसीत् नीलं सरोज भवति एव इत्युक्ते अत्यन्तायोगव्यवच्छेदः कदापि भवेत् इति, भवति इति, यत्र कुत्रापि कदापि भवेत् इति, प्रायः भवति इति वा?
अत्यन्तायोगव्यवच्छेदः इत्यस्य अर्थे एव शब्दः भवति इति भवती यदुक्तं तत् सत्यमेव भवत्या। नीलं सरोजं भवति एव इति वदामश्चेत् तत्र एव इति पदस्य अन्वयः भवति इति क्रियापदेन सह,
सत्यं सत्यं, भवति इति क्रियापदेन भवति,
एवकारस्य अन्वयः क्रियापदेन सह इति अत्यन्तायोगव्यवच्छेदः नाम इदानीं न स्यात्, नीलं सरोजम् इदानीं न स्यात् किन्तु कदाचित् भवति, तस्मिन् अर्थे नीलं सरोजं भवति एव इति वदामः खलु?
सत्यं भगिनि।
हा, इति अत्यन्तायोगव्यवच्छेदः इति एकः अर्थः। अपि च अपरः अर्थः भवत्या उक्तम् अन्ययोगव्यवच्छेदः इति खलु एव पदस्य। पार्थः एव धनुर्धरः, तस्मिन् वाक्ये विशेष्यः कः, विशेषणं किम्?
तत्र विशेष्यः पार्थः, विशेषणवाचकपदं धनुर्धरः, धनुर्धरः, सत्यम्।
अपि च एवाकारस्य अन्वयः केन सह?
पार्थः एव धनुर्धरः पार्थेन,
हा, पार्थेन सह, पार्थम् अन्वेति इति एवाकारः। तर्हि धनुर्धरः इत्यस्य योगः पार्थभिन्नेषु न स्यात्,
न भवति।
अन्ययोगव्यवच्छेदः इत्युक्ते अन्येन सह सम्बन्धः व्यवच्छेदः नास्ति एव, निषिद्धः इति। तदर्थं पार्थः एव धनुर्धरः, पार्थः एव धनुर्धरः, अन्यः कोऽपि न, तादृशार्थे अन्ययोगव्यवच्छेदः। अपि च अत्यन्तायोगव्यवच्छेदः इत्युक्ते कदाचित् भवति, तादृशार्थे। अनन्तरमस्ति अयोगव्यवच्छेदः, तस्य
वदतु भगिनि.
तत्र शङ्खः पाण्डुरः एव इति. एवकारस्य अन्वयः कुत्र अस्ति?
शङ्खः पाण्डुरः एव. अत्र पाण्डुरस्य अन्वयः एव पदस्य भवति, परन्तु अस्मिन् वाक्ये शङ्खः पाण्डुरः, परन्तु अन्यत्र कुत्रापि अन्येषां पदार्थानामपि पाण्डुरत्वं भवेत् एव.
समीचीनं, पाण्डुरत्वम् अपरेषु स्थलेषु अपि भवति इति, परन्तु अत्र अयोगः नास्ति. अत्र शङ्खः पाण्डुरः इति अयोगव्यवच्छेदः कृतः, अपरत्र भवितुम् अर्हति इति. अन्ययोगव्यवच्छेदस्थले तु अपरत्र न भवति एव, तादृशविवक्षा अस्तु इति. एवकारस्य त्रयः अर्थाः इति उक्तम् अस्मिन् वाक्ये. तत्र द्रव्याणि पृथिवी
तत्र लघुरीत्या वक्तुं शक्यते इति मन्ये. अत्यन्तयोगव्यवच्छेदः सः विशेषणं प्रति अन्वेचि अन्ययोगव्यवच्छेद सः विशेष्यं प्रति अयोगव्यवच्छेदविशेषणं प्रति अत्यन्तयोगः सः क्रियां प्रति.
अस्तु इति एव अस्ति सारांशत्वेन. सत्यं, किन्तु अत्र चिन्तयामः एव इति कस्मिन् अर्थे अस्ति इति. सन्ध्या भगिनी किञ्चित् वक्तुम् इच्छति वा?
प्रयत्नं करोमि. अत्र द्रव्याणि इति पूर्वम् उक्तमस्ति, द्रव्याणि नव इव. तत्र नव इति तत्र विधेयः इति उक्तवन्तः वयं. तर्हि अत्र द्रव्याणि नव एव, तत्र इत्युक्ते तत्र अयोगव्यवच्छेदः इति वा?
सत्यमेव, अयोगव्यवच्छेदः अपि एव अत्र. तर्हि कम् अन्वेति एव इति पदं?
तर्हि अयोगव्यवच्छेदः अस्ति, अतः नव इति यद् विशेषणम् अस्ति तेन अन्वेति.
तेन सह अन्वयः एवकारस्य इति. शङ्खः, हा एवमेव, शङ्खः पाण्डुरः एव इतिवत् द्रव्याणि नव एव इति. अत्र तु अयोगव्यवच्छेदः इति एव लिखितमस्ति.
इत्युक्ते अन्यत् किमपि अन्या अपि तत्र नव पदेन सह अन्वयः भवति, परन्तु अत्र तु केवलं द्रव्यविषये एव वदनम् इति.
समीचीनं भगिनि. नवत्वम् इत्यस्य अन्वयः अपरत्र कुत्रापि भवितुम् अर्हति, यथा पाण्डुरत्वं, परन्तु अत्रापि नवत्वस्य योगः अस्ति एव इति अयोगव्यवच्छेदः कृतः एव शब्देन. अस्तु, सम्यक् अस्ति. अत्र कोऽपि प्रश्नः वा कस्यचित्?
अत्यन्तयोगस्य पुनः उदाहरणं ददातु भगिनि.
अत्यन्तस्वरजम्
इति एवं तदेव मया श्रुतं, तत्र क्रिया किमस्ति इति न अवगतम्.
नीलं सरोजं भवति एव क्रियापदम्.
अस्तु अत्र भवति इति क्रियापदम्
इत्युक्ते कदाचित् भवेत् कदाचित् न भवेत्, परन्तु अत्यन्त अयोगव्यवच्छेदः तत्र नास्ति इति खलु. कदाचित् योगः भवेत् इति.
अस्तु
अस्तु.
अन्य उदाहरणमपि अस्ति भगिनि, मम चिन्तनमेव तत् आकाशकमलम्. एतत् तत्र वक्तुं शक्नुमः खलु?
न भगिनि. अस्तु, अत्र एव इति पदं कुत्र स्थापयति आकाशकलं कमलम् इति वदति चेत्?
नीलसरोजं तत्र वक्तुं शक्नुमः चेत् आकाशकमलमपि वक्तुं शक्नुमः.
एवं चिन्तयतु, नीलं सरोजं, सरोजम् इत्युक्ते किं? लोटस् इति. सरोजम् इत्युक्ते वस्तुतः सरोवरे जातं तादृशं सरोजं. नीलं सरोजं तु भवति एव कदाचित् अपि.
नीलमित्युक्ते तत्र वर्णः एव, वर्णमेव.
सत्यं, वर्णम्. आकाशकमलं न भवति एव
खलु नीलसरोजमपि न भवति.
सरोजम् इत्युक्ते भवत्याः मनसि किमस्ति?
नीलसरोजं भवति भगिनि, नीलं सरोजं भवति अस्ति इन् नेचर्.
ब्लू लोटस् अथवा सामान्यतया सरोजम् इति यद्यपि लोटस् इति वदामः तर्हि पङ्कजम् इति अपि खलु वदामः, पङ्के जायते पङ्कजं. सरोजम् इति सरोवरे जायते इति चिन्तयतु अथवा सरसि जायते. लिलीस् अपि तथा अस्ति खलु भगिनि, लक्ष्मी भगिनि, सरोजम् इति प्रायः वक्तुं शक्यते
किं भगिनि?
सरोजम् इति सरोवरे अथवा सरसि जायते इति अपि वक्तुं शक्यते. तर्हि सरोजम् इति चेत् तत्र बहूनि पुष्पाणि स्युः, परन्तु आकाशकमलम् इति न भवति एव. तत्तु भ्रमात्मकज्ञानस्य उदाहरणं, यथा महोदयेन उक्तमासीत् शशशृङ्गम् इत्यादिकं तद्वद् आकाशकमलम् इति.
अस्तु
अस्तु
भगिनि, तत्र अन्ययोगविवच्छेदार्थं तत्र भवत्या उक्तम् अन्यत्र यत्रापि तत् न दृश्यते इति, पुनः एकवारं वदतु तत्.
हा, अन्ययोगव्यवच्छेदार्थं महोदयेन उदाहरणं दत्तं, पार्थः एव धनुर्धरः इति.
आम्,
धनुर्धरः इति विशेषणवाचकं, पार्थः विशेष्यः. अस्मिन् उदाहरणे तु एकः एव धनुर्धरः, सः पार्थः. तं विना अन्यः कोऽपि धनुर्धरः नास्ति इति एवकारेण सूचितम्. एवकारेण, हा,
किन्तु धनुर्धरः
पार्थः
एकनिमिषः भगिनि, एकनिमिषः, सुखमन महोदय वदतु. सुखमन,
हा, धनुर्धराः सन्ति एव किल, कर्णः, भीमा, भीष्मादयः.
तर्हि इतोपि किञ्चित् स्पेसिफिक् भवितुम् अर्हति तत्र. पार्थिव एव तस्य धनुः, गाण्डीवः इति वा? हा, इति सत्यमेव महोदय, धनुर्धरः इति सत्यमेव. अन्ये केऽपि धनुर्धराः भवेयुः इति. तर्हि अत्र विवक्षा का आसीत् इत्युक्ते बहु स्पेसिफिकलि किमपि वदति चेत् पार्थः एव एतादृशः, अन्यः कोऽपि नास्ति इति.
इत्युक्ते अन्येषु धनुर्धरेषु सः श्रेष्ठः, अन्यानां धनुर्धराणां सः श्रेष्ठः इति वदनार्थं प्रायः एवकारः प्रयुक्तः. अन्यत्र कुत्रापि नास्ति इति न, किन्तु श्रेष्ठः वदनार्थं.
सावित्री भगिनी, किं
तथा? मया तथा न अवगच्छामि. अत्र यथा रक्षा भगिनी उक्तवती, स्पेसिफिकलि एतादृशः धनुर्धरः इति वक्तुं शक्यते. इदानीम् अस्मिन् उदाहरणे यथा भवान् वदति, बहवः धनुर्धराः भवेयुः, परन्तु अत्र अन्ययोगव्यवच्छेदः इति तदा वदामः यत्र एक्स्ट्रीम्लि स्पेसिफिक् इति अस्ति. तत् मम अवगमनम्.
इदानीं भगिनि, पार्थस्य धनुः कः? गाण्डीवः इति आसीत् खलु? पार्थः एव गाण्डीव धनुर्धरः इति चिन्तयतु शुकवन महोदय.
तादृशं वदति चेत् यदर्थं भवत्या उक्तं तत् सङ्गच्छते तत्र, किन्तु तादृश अर्थं नास्ति इति मम अवगमनं. यथा आण्ड्रे महोदयेन उक्तं, तत्र अन्ययोगव्यवच्छेदार्थः इत्युक्ते विशेष्यं प्रति अन्वयति एवकारः. तावत् स्वीकरोमि चेत् तत्र
तावत् स्वीकरोतु, विशेष्येण सह एव. पार्थे कोऽपि विशेषः अस्ति इति चिन्तयतु, यं कमपि विशेषं स्वीकृत्य, पार्थे विद्यमानं विशेषं स्वीकृत्य तत्र एवकारस्य प्रयोगः भवति चेत् अन्ययोग व्यवच्छेदः इति. अस्तु,
अस्तु,
सम्यक्. तर्हि अस्माकं द्रव्यनिरूपणवाक्ये तु नव एव इति वदनेन तत्र अयोगव्यवच्छेदः, नवत्वम् इति अन्वेति, तत्र एवकारः नवत्वम् अन्वेति इति सत्यं, किन्तु तस्य अन्वयः, नवत्वस्य अन्वयः अपरत्रापि स्यात् इति. समीचीनं वा? अस्तु, अग्रे गच्छेम. गोपालमहोदय केवलं शृणोति इति खलु अद्य? अस्तु, इतः अग्रे तर्हि गन्तुं शक्नुमः. सन्ध्या भगिनी अग्रे पठति वा, नवमे पुटे? नवमे पुटे द्रव्यं विभजते इति.
द्रव्यं विभजते तत्रेति. तत्र द्रव्यादिमध्ये द्रव्याणि नवैवेत्यन्वयः. कानि तानित्याह, तर्हि अत्र किमस्ति? तत्र द्रव्यादिमध्ये द्रव्याणि नव एव इति अन्वयः अस्ति. तत्र इत्युक्ते एव पुनः तदेव किल, एव इति नवपदेन सह अन्वयः इति वदति तद्वाक्यं. कानि तानित्यतः पृथिवी इत्यादि इति अस्ति. तर्हि तत्र अग्रे पुनः तत्र पूर्वपक्षी वदति, तत्र ननु तमसो दशमद्रव्यस्य विद्यमानत्वात् कथं नवैव द्रव्याणि इति. एतत्तु स्पष्टमस्ति, तत्र तमः इति दशमद्रव्यम् इति पूर्वपक्षी वदति. अत्र पूर्वपक्षी मीमांसकः अस्ति इति महोदयेन उक्तं, ते तमसं दशमं द्रव्यम् इति स्वीकुर्वन्ति इति. अतः एतेन प्रश्नेन तत्र पूर्वपक्षी मीमांसकः अस्ति इति.
हा, सत्यं भगिनि. अस्तु, पूर्वपक्षी पुनः आरोपण आक्षेपं कुर्वन्ति. आक्षेपः कः इति चेत्, नवैव इति कथं वदति? तमसः, तमः इति दशमद्रव्यमस्ति एव, तमसः विद्यमानत्वात् कथं नवैव द्रव्याणि इति.
तत्र अग्रे तथा हि इति अस्ति. तथा हि इत्युक्ते तत्र यतः इत्यस्मिन् अर्थे यद् वाक्यमुक्तं तत्र तमः तत्र दशमद्रव्यम् इति, तत्र किमर्थम् उच्यते इति अत्र तथा हि इति पदेन लिखितमस्ति. यतोहि तमः खलु चलं नीलं परापरविभागवत् इति. तर्हि तमः यद् तमसं दशमं द्रव्यम् इति वदामः, तत् तमः चलम् अस्ति इत्युक्ते क्रियावत् अस्ति, नीलं रूपम् अस्ति तस्मिन्, अपि च परापरविभागः, तत्र परं तमः अपरं तमः इति, तत्र गुणः परम् अपरम् इति तत्र गुणः अस्ति इति. तत्र विभागवत् इति किं, परम् अपरम् इति गुणस्य विभागः अस्ति इति वा?
इति एव मम अवगमनं भगिनि. परं तमः अपरं तमः इति विभागः भवेत्.
तर्हि तत्र यथा द्रव्यम् इति द्रव्ये तत्र गुणः अपि च क्रिया इति अस्ति, तथैव तमसि अपि अस्ति, अतः तमः अपि तत्र अतिरिक्तं द्रव्यम् इति स्वीकुर्मः. तदग्रे अपि अस्ति, परन्तु एतावत्पर्यन्तं तावदुक्तम्.
भगिनी, तत्र चलम् इति तमः चलति वा, कः अर्थः?
चलम् इति तमः इत्यस्य विशेषणं महोदय. नीलं तमः, चलं तमः इति. तत्र इतोपि एका वार्ता महोदयेन उक्ता, यत् नीलं तमः इति वदामः खलु, नीलम् इति तमं सूचयति, इत्युक्ते गुणिवाचक. तमः इति गुणवत्, कः गुणः इति चेत् नीलवर्णः इति गुणः. परन्तु
नीलम् इत्युक्ते कृष्णवर्णः इति वा? कृष्णवर्णः तमः इत्युक्ते डार्क् तम, तत्र नीलम् इति
नीलम् इत्युक्ते ब्लू अथवा यत्किमपि डार्क् कलर् भवतु नाम
कृष्णवर्णमपि भवति.
तादृशवर्णः तमसि अस्ति. नीलम् इति वस्तुतः तत्तु वर्णवाचकशब्दः खलु. नीलः वर्णः इति पुल्लिङ्गे भवति यदा गुणं सूचयति. अत्र तु गुणिनं सूचयति, तमः इति गुणि, नीलरूपं तमसि अस्ति इति कृत्वा तादृशगुणः तमसि अस्ति. अपि च चलं तमः, चलम् अपि विशेषणं, चलनक्रिया अस्ति. यथा भगिन्या उक्तं, क्रियायाः बलात्, क्रियावत्त्वस्य बलात्, अपि च गुणवत्त्वस्य बलात् तमः द्रव्यम् इति. अस्मिन् वाक्ये तु तमसः
कीदृशक्रिया अस्ति च तमसि, कीदृशक्रिया अस्ति चल इत्युक्ते चलम् इति.
अद्य एकं करपत्रं प्रेषितं मया नूतनवर्गसदस्येभ्यः, तद् इच्छति चेत् पठतु. तत्र एतेषां पूर्वपक्षिणां मीमांसकानां वादः अयं यत् यदा कोऽपि रात्रिवेलायां दीपं स्वीकृत्य अग्रे अग्रे गच्छति चेत् समः पुरतः गच्छति
अपि अग्रे अग्रे गच्छति
इति तेषां वादः चलनक्रियावत्वात् अपि च गुणवत्वात् नील नीलरूपगुणः अथवा परत्वम् अपरत्वम् इति गुणद्वयं तस्मात् समः द्रव्यम् इति अस्तु तमसः द्रव्यत्वं साधयितुम् इच्छन्ति कथञ्चित् मीमांसकाः अस्मिन् विभागे उदं वा
पर अपर तत्र पर अपर विभागवत् परतमसः अपरतमसः इति अस्ति वा
इति ते वदन्ति परं तमः अपरं तमः इति यथा काले परत्वम् अपरत्वम् इति आगतं दिशि अपि आगतं प्रायः दिशि यथा आगतं परम् अपरम् इति वयं स्मरामः खलु पठितवन्तः
दूरं निकटं तथा खलु
भगिनी दूरं निकटं तथा प्रायः मीमांसकाः तदपि वक्तुम् इच्छन्ति परापरविषये अस्तु तर्हि अस्मिन् भागे तमसः द्रव्यत्वं साधितम् इति वदन्ति अग्रे तमः कीदृशं द्रव्यम् इति प्रश्नः आगच्छति खलु तदर्थं मीमांसकाः किं वदन्ति इति अग्रे पश्येम तत्र रत्ना भगिनी पठति वा
भगिनि सम्यक् श्रूयते वा
श्रूयते
अस्तु प्रसिद्धद्रव्यवैधर्म्यान्न वैधर्म्यान्नवभ्यो वैधर्म्यान्नवभ्यो भेत्तुमर्हति प्रसिद्धद्रव्यवैधर्म्य वैधर्म्यात् नवभ्यः भेत्तुम् अर्हति इत्युक्ते एषः दशमः द्रव्यम् इति पूर्वपक्षिणः वादं ते वदन्ति प्रसिद्धद्रव्यवैधर्म्य अत्र वैधर्म्य अन्यत् धर्मः इति खलु भगिनि
इत्युक्ते तमः विधर्मः इति इत्युक्ते तस्मिन् वैधर्म्यम् अथवा वैलक्षण्यम् अस्ति प्रसिद्धद्रव्यवैधर्म्यात् प्रसिद्धद्रव्येभ्यः विधर्मः अस्ति वैधर्म्यः इति अस्ति तमसि वैधर्म्यात् नवभ्यः प्रसिद्धद्रव्येभ्यः भेत्तुम् अर्हति इति इत्युक्ते प्रसिद्धेषु पदार्थेषु तमः न गच्छति प्रसिद्धाः पदार्थाः के
नवद्रव्याणि पृथ्वी तेजः वायु आकाशः नवद्रव्याणि
तेभ्यः नवभ्यः अपि वैधर्म्यम् अस्ति तमस्ति इति अस्तु अग्रिमवाक्यमपि पठतु भगिनि
अस्तु नीलं तमश्चलति चलतीत्यबाधितप्रतीति बलान् निरूपण निरूपाधारतया अस्तु नीलं तमश्चलति इति वदन्ति जनाः नीलं तमः चलति इति प्रसिद्ध इति प्रतीतिः अस्ति प्रतीतेः एतयाः प्रतीतेः आधारतया क्रिया आधारतया प्रतीतिः अपि अस्ति अपि च तमः चलति इति वदामः चेत् तमसि क्रिया आधारः आधारता अस्ति इति च इति द्वयोः कारणयोः कारणद्वयम् अस्ति अतः द्रव्यत्वं तमसि अस्ति इति स्वीकरणीयम्
तावदेव अस्ति वैधर्म्यम् इति उक्तवन्तः कीदृशवैधर्म्यम् इति वदन्ति अस्तु अधुना नीलं तमश्चलति इति अबाधितप्रतीतिः नीलं तमश्चलति इत्यबाधितप्रतीतिबलान् नीलरूपाधारतया क्रियाधारतया च द्रव्यत्वं तावत् सिद्धम् इति अबाधितप्रतीतिः इत्युक्ते मीमांसकानां दृष्ट्या मीमांसकानां दृष्टौ एषा प्रतीतिः नीलं तमश्चलति इति प्रतीतिः अबाधिता इत्युक्ते भ्रमशून्या प्रतीतिः इति तस्मिन् भ्रमः नास्ति तादृशी प्रतीतिः लोके गच्छति प्रचलति इति ते वदन्ति तया प्रतीत्या जानीमः यत् नीलरूपाधारः अस्ति समः अथवा क्रियाधारः अस्ति समः तया आधारतया द्रव्यत्वं सिद्धं कस्य तमसः ते किञ्चित् वैधर्म्यं प्रदर्शयितुम् इच्छन्ति तमसः इतः अग्रे किञ्चित् इतोपि वदन्ति वैधर्म्यस्य विषये एव किमर्थम् आकाशः न
अपि च एकं स्मरामि भगिनि अत्र महोदयेन उक्तं यत्र प्रतीतिः अस्ति तत्र स्वीकरणीयमेव साधारणतया इति
साधारणतया इति ते वदन्ति वस्तुतः परन्तु यद्यपि ते वदन्ति अबाधितप्रतीति इति इत्युक्ते एषा प्रतीतिः अथवा ज्ञानं यथार्थम् इति यद्यपि ते वदन्ति तथापि अस्तु अग्रे पश्येम सिद्धान्ती किं वदन्ति एतेषां विषये अस्य प्रतीतेः अस्याः प्रतीतेः विषये इति
भगिनि एकनिमिषम् अत्र रूपमस्ति क्रिया अस्ति इति कृत्वा ते दशमद्रव्यम् इति ते चिन्तयन्ति खलु रूपं नीलम् अपि च क्रिया अस्ति गुणक्रिया अस्ति तमसि
अपि च परापरविभागवत् तमः इति इत्युक्ते परत्वम् अपरत्वमपि अस्ति तमसि तया आधारतया एते तमः इति दशमं द्रव्यम् इति वदन्ति अस्तु पुनः वैधर्म्यम् इति उक्तं तमः विधर्मः किमर्थम् इति अग्रे वदन्ति आकाशः न वायुः न इत्यादिकं वदन्ति तदग्रे किञ्चिदेव पठेम आण्ड्रे महोदय अग्रे पठति वा
तत्र तमसो न आकाशादिपञ्चके अन्तर्भावः रूपत्वात् अत एव न वायौ स्पर्श अभावात् सदा गचिमत्वाभावच्च नापि तेजसि सस्वभस्वररूपाभावत् उष्णस्पर्श अभावच्च नापि जले शीतस्पर्श अभावत् नीलरूपाश्रयत्वाच्च अपि पृथिव्यां गन्धवत्वाभावत् स्पर्शरहितत्वाच्च तस्मात् तमो दशमद्रव्यम् इति चेत् न तमसस्तेजो अभावरूपत्वात् अत्र
आरम्भतः तमसः न आकाशादिपञ्चके तस्मात् आरभ्य
तत् तमसः न आकाशपञ्चके अन्तर्भावः भवतु तत्र आकाशपञ्चकं नाम किम् आकाशदिक्कालात्मनांसि इति तत्र यत् पञ्च द्रव्याणि अन्ते सन्ति तानि पञ्च तत्र अन्तर्भावः नास्ति यतोहि नीलं गच्छति नीलं चलति इति उक्तौ तत्र रूपं किञ्चन प्रचीयते तत्र आकाशपञ्चके तु रूपं नास्ति अत एव रूपवत्वात् रूपवत्वात् तमसः तत्र पञ्चके न स्यात् अपि च वायौ नास्ति अतः स्पर्शरहितं किं तत्र वायोः लक्षणं स्पर्शरहितरहितचेत् स्पर्शवत्वम् एवं तत्र तु नीलस्य न तामसः स्पर्शवत्वं नास्ति अतः एव वायौ अन्तर्भावः न सङ्गच्छति अपि च वायुः सदागतिमान् तत्तु सः धर्मः च नास्ति तमसि अपि च तेजसि तत्र तेजसि भास्वररूपाभावात् तेजसि तु भास्वररूपवत्वम् अस्ति तत्तु तमसि नास्ति उष्णस्पर्शवत्वम् अस्ति च तत् अपि तमसि नास्ति अतः तेजो भिन्नं पदार्थः भिन्नं द्रव्यम् इति सिद्ध्यति जलेपि तथा शीतस्पर्शवत्वं नास्ति तमसि नीलरूपाश्रयत्वाच्च जले वस्तः आभास्वर आभासरशुक्लरूपम् अस्ति तत्तु तमसि न यतो नीलम् इति अस्माभिः तत्र प्रचीयते अतः एव तत्रापि विप्रतिपथि अपि च पृथिव्यां नास्ति गन्धवत्वाभावात् स्पाशरहितत्वात् च एवम् अतः एव तस्मात् तमः दशमं एवम् अतः एव इदानीं क्रियमत्वं द्रव्यवत् गुणवत्वं सिद्धम् उभयं सिद्धम् अपि च तत्र प्रदर्शितम् अस्माभिः पूर्वपक्षिभिः वस्तुतः अन्येषु द्रव्येषु अन्तर्भावः न सङ्गच्छति अत एव तमः भिन्नं द्रव्यम् इति सिद्धं तत् इति चेत् इति वदति पूर्वपक्षी वदति चेत् तर्हि वयं तु वदामः न सिद्ध्यति यतोहि तमः तेजो अभावरूपत्वात् भवतु तत्र अस्य इदानीं विवेचनं अग्रे भविष्यति
हा 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 समीचीनं महोदय तर्हि हा पूर्वपक्षी वैधर्म्यं सूचयति एवम् उक्त्वा आकाशादिपञ्चके तमसः न अन्तर्भावः यतोहि रूपाभावात् पुनः स्पर्शाभावात् वायौ न अन्तर्भावः तदा गतिमत्वाभावात् पुनः न अन्तर्भावः वायौ इत्यादिकम् उक्त्वा अपि च तेजसः भास्वरशुक्लरूपम् इति जानीमः अपि च उष्णस्पर्शः इति जानीमः तौ द्वौ गुणौ अपि तमसि न स्तः इति कृत्वा तमः न तेजः इत्यादिकं नापि जले अन्तर्भावः यतोहि जले शीतस्पर्शवत्वम् अपि च अभास्वरशुक्लरूपं तमसि तु नीलरूपं स्पर्शाभावः इति कृत्वा जले न अन्तर्भावः नास्ति पृथ्व्यामपि नास्ति गन्धत्वाभावात् इति उक्त्वा वैधर्म्यं सूचयति परन्तु तस्मात् अग्रे सिद्धान्ती वदति यत् तस्मात् तमो दशमद्रव्यम् इति चेत् न अहं न अङ्गीकरोमि दशमद्रव्यम् इति किमर्थं तमः तेजोभावः रूपः इति तेजसः अभावः एव तमः अपरं द्रव्यम् इति न तेजः इति एकं द्रव्यं तस्य अभावः एव तमः इति वदति इतः अग्रे पुनः पूर्वपक्षी बहु किमपि आक्षिपति तर्हि अहं चिन्तयामि अत्र स्थगयामः इति पुनः पुनरावर्तनरीत्या ध्वनिमुद्रणं शृणोति चेत् वरं भवति इति कोऽपि प्रश्नः वा एतावता अस्तु प्रश्नः
भगिनी तत्र बास्वररूप अभाव एतत् किम् अस्ति तत्र बास्वर
जलस्य न क्षम्यतां तेजसः रूपं किम् इति चेत् भास्वरशुक्लरूपं भास्वर इत्युक्ते रेस्प्लेण्डेण्ट् इति भगिनि तादृशरूपमस्ति तेजसि तमसः तादृशरूपं नास्ति इति कृत्वा तमः तेजः न इति साधयितुम् इच्छति पूर्वपक्षी परन्तु सिद्धान्ती न अङ्गीकरोति तमः इति तेजसः अभावः तावदेव तमः इति अपरं द्रव्यं नास्ति अपि तु द्रव्याभावः इति वदति अस्तु अस्तु कोऽपि प्रश्नः वा अथवा अन्यत् किमपि चिन्तनम् अपरेषाम् अस्तु नास्ति चेत् अत्र स्थगयामः शुभरात्रि
धन्यवादः
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 धन्यवादः